इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। अथ वार्ताः। राष्ट्रिय युवदिवसस्य अवसरे नवदिल्ल्याम् आयोजितस्य विकसित भारत यंग लीडर्स डायलॉग इत्याख्यस्य युव नेत्री संवाद सम्मेलनस्य समापन सत्रे प्रधानमंत्री नरेन्द्र मोदी उक्तवान् यत् स्वामी विवेकानन्दस्य जीवनम् अस्माकं सर्वेषां कृते मार्गदर्शकम् अस्ति। सः अवदत् यत् सः युव संततिषु अतितरां विश्वसिति, यूनां सामर्थ्यं च तं प्रेरयति। प्रधानमन्त्रिणा उक्तं यत् युवशक्तिः नवीनैः विचारैः, ऊर्जाभिः, दृढसंकल्पेन च राष्ट्रनिर्माणे अग्रणीं भूमिकां निर्वहति। श्रीमोदी अवदत् यत् 47-2000 वर्षे यदा देशस्य स्वतन्त्रतायाः 100 वर्षाणि पूर्णानि भविष्यन्ति, सः कालः अद्यतनयूनां जीवनस्य महत्वपूर्णक्षणं भविष्यति। इतः पूर्वं प्रधानमन्त्री प्रदर्शनीम् अवलोक्य युवप्रतिनिधिभिः सह संवादं च कृत्वा तेषां नवाचार विचाराणां विषये सविस्तरं ज्ञातवान्। ध्यानास्पदम् अस्ति यत् जनवरी मासस्य 9-12 दिनांकं यावत् आयोजिते विकसित भारत यंग लीडर्स डायलॉग इत्याख्ये युव नेत्री संवाद सम्मेलने देशस्य 50 लक्षाधिकाः युवानः विभिन्नस्तरे सहभागित्वम् आवहन्।
विकसित भारत यंग लीडर्स डायलॉग एक ऐसा प्लेटफॉर्म जहां देश के विकास की दिशा तय करने में युवाओं की सीधी भागीदारी होती है। 50 लाख से अधिक नौजवानों की रजिस्ट्री, 30 लाख से अधिक युवाओं का विकसित भारत चैलेंज में हिस्सा लेना, देश के विकास के लिए अपने विचार शेयर करना, इतने बड़े स्केल पर युवा शक्ति का एंगेज होना अपने आप में अभूतपूर्व है।
भारत जर्मनी देशाभ्याम महत्वपूर्णानि 9-10 संधिपत्राणि हस्ताक्षरैः प्रमाणीकृतानि, अपि च उभाभ्याम देशाभ्याम रक्षोद्योगिक सहयोगं दृढयितुं 8 घोषणाः विहिताः। व्यापार निवेशं समेधितुं चीफ एग्जीक्यूटिव ऑफिसर्स फोरम इत्यस्य स्थापना अपि एतासु अन्यतमा वर्तते। वार्ताहर सम्मेलनं सम्बोधयन् भारतीय विदेश सचिवः विक्रम मिश्री अवदत् यत् जर्मनी देशीयः राष्ट्राध्यक्षस्य भारत यात्रावधौ देशद्वयस्य मध्ये महत्वपूर्णः संवादः अभवत्। CSPOC इति राष्ट्रमण्डल देशानां राष्ट्रिय संसदाम् अध्यक्षाणां पीठासीनाधिकारिणां च 28 सम्मेलनस्य आयोजनं भारतं श्वः नवदिल्ल्यां करिष्यति। त्रिदिवसीयम् एतत् सम्मेलनं जनवरी मासस्य 16-दिनांकपर्यन्तं प्रवर्तिष्यति। लोकसभायाः अध्यक्षः ओम बिरला एतस्य सम्मेलनस्य अध्यक्षतां करिष्यति। नवदिल्ल्यां वार्ताहरान् सम्बोधयन् श्रीबिरला अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी जनवरी मासस्य 15 दिनांके संविधान सदनस्य ऐतिहासिके सेन्ट्रल हॉल इत्यत्र सम्मेलनस्य उद्घाटनं करिष्यति। शस्यानां पर्व लोहड़ी अद्य आचर्यते। एषः शस्योत्सवः मुख्यरूपेण पंजाब, हरियाणा, हिमाचल प्रदेशेषु तत्समीपवर्तिषु क्षेत्रेषु च आचर्यते। अयम् उत्सवः पक्वशस्यानां हर्षेण, सूर्यस्य उत्तरायणेन च सह सम्बद्धः अस्ति। राष्ट्रपतिः द्रौपदी मुर्मुः नागरिकान् लोहड़ी पर्व अभिलक्ष्य अभिनन्दितवती। राष्ट्रपतिः द्रौपदी मुर्मुः मकरसंक्रान्ति, पोंगल, माघबिहु इत्येतेषां पर्वणां पूर्वसन्ध्यायां ह्यः देशवासिनः अभिनन्दितवती। एतानि पर्वाणि अद्य श्वः च देशस्य विभिन्न भागेषु आमान्यन्ते। राष्ट्रपतिः अत्रावसरे उक्तवती यत् देशस्य समृद्ध कृषि परम्पराणां प्रतीकभूताः एते उत्सवाः राष्ट्रियैक्योतकाः सन्ति। अन्ते क्रिकेट क्रीडायां, वुमन्स प्रीमियर लीग क्रिकेट स्पर्धा मालिकायां गतरात्रौ नवई मुम्बय्यां रॉयल चैलेंजर्स बेंगलुरु दलेन यूपी वॉरियर्स दलं 9 क्रीडकैः पराजितम् इति वार्ताः।